इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना आरब्धस्य संवादात्मक कार्यक्रमस्य परीक्षा पे चर्चा इत्यस्य अष्टमं संस्करणम् अद्य प्रातःकाले एकादशवादने दूरदर्शनम् समेत्य अनेकेषु अन्तर्जालपटलेषु प्रसारयिष्यते। प्रधानमन्त्री छात्रैः अभिभावकैः शिक्षकैः च सह संवादं कृत्वा परीक्षायाः सज्जतायाः चिन्ताप्रबन्धनस्य व्यक्तिगतविकासस्य च विषये अन्तर्दृष्टिं प्रदास्यति। कार्यक्रमस्यास्य सजवप्रसारणम् आकाशवाणी दूरदर्शन स्वयं स्वयंप्रभा प्रधानमन्त्री कार्यालयानां यूट्यूब वाहिनीषु अथ च शिक्षा सूचना प्रसारण मन्त्रालयानां सामाजिक सञ्चारतन्त्रेषु करिष्यति। सर्वेभ्यः प्रदेशेभ्यः चिताः 37 छात्राः प्रधानमन्त्रिणा सह साक्षात् संवादमपि करिष्यन्ति। अस्मिन् कार्यक्रमे 7 ज्ञानवर्धन सत्राणि भविष्यन्ति। अद्यारभ्य पेरिस मध्ये द्विदिवसीय एआई एक्शन समिट इत्येतस्य शिखर सम्मेलनस्य आरम्भो भविष्यति, यत्र च कृत्रिम बुद्धिमत्ता तन्त्र विकास विषये वैश्विक नेतारः उद्योगपतयः शोधकर्तारश्च समवेताः भविष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदी फ्रांसदेशस्य च राष्ट्रपतिना इमैनुअल मैक्रो इत्यनेन सह शिखर सम्मेलनस्य सहाध्यक्षतां विधातुम् अद्य पेरिस नगरं प्रति प्रस्थास्यति। एतस्य कार्यक्रमस्य उद्देश्यं वैश्विक एआई नीतीनां साकारीकरणं नवाचारस्य च नैतिक दायित्वेन सह सर्जनम् इति विद्यते। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य प्रयागराज नगरे महाकुम्भं प्रति याति। तत्र असौ गंगा यमुना सरस्वती नदीनां संगमे पवित्रस्नानं समाचरिष्यति, पूजार्चनामपि विधास्यति। तदनु राष्ट्रपतिः प्रयागराजे एव विद्यमानस्य बड़े हनुमान इत्याख्यस्य मन्दिरस्य अथ च अक्षयवटं प्रति दर्शनाय गमिष्यति। एतदनन्तरं असौ डिजिटल महाकुम्भ एक्सपीरियंस सेंटर इत्यत्र आधुनिक तन्त्रज्ञान प्रणाल्याः माध्यमेन महाकुम्भस्य गहन ज्ञानम् अवलोकयिष्यति। छत्तीसगढ़े सुरक्षाबलैः सह संजाते संघर्षे 31 माओवादिनः सैन्यबलैः मारिताः। भुशुण्डी गोलिकादि प्रहारेषु द्वौ सुरक्षाकर्मिणौ वीरगतिं प्राप्तवन्तौ, अन्यौ दौ च व्रणितावपि संजातौ इति सूचना वर्तते। गृहमन्त्रिणा अमितशाहेन वीरसैन्य पारिवारिक जनान् प्रति संवेदनाः प्रकटिताः। तेन भणितं यत् सुरक्षाबलैः बीजापुर छत्तीसगढ़े च स्वलक्ष्यं प्राप्तम्। माओवादीनां मृत्योः स्थलात् बृहन्मात्रिक आयुध सामग्री अपि अधिगतास्ति। भारत मिस्र देशौ अद्यारभ्य त्रयोविंशति दिनांकं यावत् राजस्थानस्य महाजन फील्ड फायरिंग रेंज इत्याख्ये स्थले 25-अधिक-2000 चक्रवात इत्यभिनामधेयकस्य संयुक्त सैन्याभ्यासं करिष्यतः। अस्य संयुक्ताभ्यासस्य उद्देश्यं भारत मिश्र देशयोर्मध्ये रक्षा सहकार्यं वर्धयितुं व्यावसायिक कौशलस्य आदान प्रदानं मरुभूमि वातावरणे विशिष्ट बलानां पारस्परिक कार्यक्षमतायाः वर्धनमिति वर्तते। अवधेयास्पदं वर्तते यत् इदं हि चक्रवातस्य तृतीयं संस्करणं वर्तते। भारतीय सैन्यबलस्य समूहस्य प्रतिनिधित्वं पैराशूट रेजिमेंट इत्येतस्य विशिष्टबलस्य कर्मिभिः क्रियते। साम्प्रतिकेषु वर्षेषु भारत मिश्र देशयोः मध्ये सैन्य सहयोगः सुदृढो जातः। पुरुष क्रिकेट क्रीडायां ह्यः कटकनगरस्य बाराबती क्रीडांगणे तिसृणां क्रीडानां श्रृंखलायाः एकदिवसीय द्वितीये अन्ताराष्ट्रिय द्वन्द्वे भारतीय दलेन इंग्लैण्डदलं 4 स्तोभैः पराजितम् इति वार्ताः।